गुरुब्रह्म गुरुविष्णुगुरुदेव महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषयः अस्ति खादस्य लक्षणम् इति खादस्य लक्षणवाक्यं वयं दृष्टवन्तः गतवर्गे तत्र खादस्य लक्षणवाक्यं किम् अस्ति तत्र अतीतादिव्यवहारहेतुः खादः स च एकः विभुश्च विभुः नित्यश्च तत्र अतीतादिव्यवहारहेतुः इति अस्ति तर्हि तत्र हेतुः नाम किं तत्र शुभा भगिनी हेतुः नाम किं
कारणम् इति भवति महोदय
कारणं हेतुः नाम कारणं समीचीनं सुधा भगिनी तत्र व्यवहारः नाम किं
व्यवहारः इत्युक्ते ज्ञानजनकशब्दप्रयोगः
इति समीचीनं हा ज्ञानजनकशब्दप्रयोगः इति समीचीनम् अशोक महोदय अतीतादि इति किमर्थं केवलम् अतीतः इति किमर्थं न उक्तम्
अतीतं भविष्यत् वर्तमानं सर्वाणि अतीतादि
अतः तत्र केवलम् एकविधकालः इति नास्ति तत्र अनेकविधकालः अस्ति भविष्यत्कालः भूतकालः वर्तमानकालः इति कृत्वा सर्वविधकालस्य व्यवहारः आसीत् भविष्यति इति तादृशव्यवहारः शब्दजनकप्रय तत्र ज्ञानजनकशब्दप्रयोगस्य कारणं तं प्रति कारणम् अस्ति कालः इति वयं लक्षणवाक्यं परिशीलितवन्तः अपि तत्र चित्रम् अपि निर्मितवन्तः तत्र पुस्तके दत्तमस्ति समीचीनं तर्हि तत्र नीता भगिनी तर्हि किञ्चित् तत्र यत् चित्रमस्ति अस्माकं तत्र दृश्यते खलु चित्रम् अत्र एषः चित्रः तत्र एषः चित्रः यत् चित्रं पुस्तके अस्ति तत्र पुस्तके दत्तं चित्रं तत्र किं किम् अस्ति इति तत्र किञ्चित् विवृणोति वा तर्हि
तत्र घटः अतीतः इति उक्तत्वात् घटः विशेष्यम् अतीतः अतीतत्वम् इति विशेषणं तत् अतीतत्वे प्रकारता अस्ति अतीतत्वं निष्ठप्रकारता घटनिष्ठविशेष्यता घटनिष्ठविशेषतानिरूपकं ज्ञानं तथैव अतीतत्वं निष्ठप्रकारतानिरूपकं ज्ञानं अनन्तरं ज्ञाने कार्यता अस्ति ज्ञाननिष्ठकार्यता निरूपिता कारणता आश्रयः शब्दप्रयोगः
समीचीनम् इदानीं प्रश्नः किमर्थं ज्ञाने कार्यता अस्ति
ज्ञाने कार्यता अस्ति इत्युक्ते कथं वदामि तत्र घटः अतीतः इति तत् शब्दप्रयोगः ज्ञानं जनरयति तत्
तत्र समीचीनं नाम कोऽपि महिला वा पुरुषः वा वदति तत्र कापि व्यक्तिः वदति घटः अतीतः इति शब्दप्रयोगं तत्र भवति तदा किं भवति तेन शब्दप्रयोगेण
ज्ञानं जनयति तत्र ज्ञानजनकशब्दप्रयोगं भवति
हा अतः एव तत्र ज्ञानं कार्यं भवति
अतः ज्ञानं कार्यं भवति तत्र
शब्दप्रयोगः कारणं भवति
शब्दप्रयोगः कारणं ज्ञानं कार्यं भवति अनन्तरं तथैव काले कालनिष्ठकारणता इति वक्तुं शक्नुमः तत् यदि कालः कारणम् अस्ति तत् शब्दप्रयोगः कार्यं भवति
अस्तु किमर्थं कालः कारणम् अस्ति तत्र शब्दप्रयोगं प्रति
हा तत् यदि घटः अतीतः इति वदामः चेत् कालस्य कालादिप्रयोग इति अतीतः वा विद्यमानः वा अस्ति इति कालज कालस्य ज्ञानं भवति
नाम तत्र कालः नासीत् चेत् तत्र तादृशवाक्यस्य वाक्येन तत्र किं तत्र अर्थः भवति वा ज्ञानं जनयति वा तत्र
आवश्यकता अस्ति एव
अतः तत्र कालस्य आवश्यकता अस्ति कालः नासीत् चेत् घटः अतीतः इति वाक्यं निरर्थकं भवति अतः तत्र तदा किं भवति शब्दप्रयोगेण ज्ञानं न उत्पद्यते
निरर्थक भवति
अतः तत्र शब्दप्रयोगः ज्ञानजनकं भवेत् इति का इति अस्ति इति कृत्वा तत्र यदि तादृश शब्दप्रयोगेण ज्ञानं न जनयति चेत् न कोऽपि तादृशशब्दप्रयोगः प्रयोगं करोति खलु तर्हि तत्र शब्दप्रयोगः अभवत् इति अस्ति चेत् तर्हि तत्र कालः भवेत् अतः कालः अस्ति इति एव कारणं समीचीनं तर्हि काले किम् अस्ति
एकस्मिन् समये एव शब्दप्रयोगः कालः कार्यम् अपि भवति कारणमपि भवति तत्
समीचीनं भगिनि नाम कालस्य कार्यं भवति शब्दप्रयोगः अपि स्वयं कारणं भवति ज्ञानं
प्रति कारणं भवति कालः कालस्य प्रति कार्यं भवति
कालं तत् कालः शब्दप्रयोगं प्रति कारणं भवति शब्दप्रयोगः कार्यम् इति समीचीनं कालस्य कारणम् इति भवति अतः तत्र समीचीनं तर्हि शब्दप्रयोगे एकस्मिन् समये तत्र कार्यता अपि अस्ति कारणता अपि अस्ति इति अस्ति समीचीनं इदानीं तत्र अग्रे सरामः तर्हि तत्र इदानीम् अस्माकं विषयः अस्ति तत्र एतावत् तत्र चित्रं दृष्ट्वा यादृशवाक्यं रचितुं शक्नुमः इति एतत् सर्वं वयं गतवर्गे दृष्टवन्तः अपि तत्र विषयता विषयिता एतत् सर्वमपि तत्र गतवर्गे तत्र तस्य पुनस्मरणम् अपि कृतवन्तः इदानीम् अग्रे अस्मिन्नेव तत्र चित्रे किञ्चित् तत्र सूक्ष्मरीत्या चिन्तनं कुर्मः नाम तर्हि तत्र अवच्छेदक अवच्छेद्यभावः अपि तत्र नेतुम् अत्र नेतुम् इच्छामः अत एव तत्र अग्रिमपरिच्छेदः भवति तत्र अस्तु तर्हि नीता भगिनी समीचीनं तत्र धन्यवादः भगिनी समीचीनम् अस्ति अस्तु अग्रे तत्र अशोक महोदय अग्रे पठितुम् इच्छति वा तत्र नूतन
काललक्षणे
उपशीर्षकः
आरब्ध वा महोदय
सत्यं महोदय
एकनिमिषं महोदय काललक्षेण अवच्छेद्य अवच्छेदकभावः प्रकारत्वविशेष्यत्व स्थले अपि सर्वत्र अवच्छेद्य अवच्छेदकभावः ज्ञातव्यः तथा च अतीतत्वं प्रकारः चेत् अतीतत्वे प्रकारता प्रकारता अवच्छेदकं तद्विति धर्मः अतीतत्वत्वं घटे विशेष्यता अवच्छेदकं घटत्वं तादृशप्रकारता विशेष्यतयोः निरूपकं ज्ञानम् अतीतः घटः इति तादृशज्ञानजनकः यदि शब्दप्रयोगः तर्हि ज्ञानं जन्यं जन्यता ज्ञाने जन्यता अवच्छेदकं ज्ञानत्वं तादृशज्ञानत्व अवच्छिन्न जन्यतानिरूपितजनकताशब्दप्रयोगे जनकता अवच्छेदकं शब्दप्रयोगत्वं तद् अवच्छिन्न जनकताश्रयः यः शब्दप्रयोगः सः कालं विना न सम्भवति इति कालः तस्य जनकः तद् निरूपितजन्यता अपि शब्दप्रयोगे इति एकत्र एव शब्दप्रयोगे ज्ञाननिष्ठकार्यतानिरूपितकारणता वर्तते एवं कालनिष्ठकारणतानिरूपितकार्यता अपि वर्तते सा कार्यता अपि शब्दप्रयोगत्व अवच्छिन्ना तादृशकार्यतानिरूपितकारणताश्रयः कालः कारणताश्रयत्वं कालस्य लक्षणम्
इदानीं तर्हि तत्र पूर्वं तत्र वयं कालस्य लक्षणम् उक्तवन्तः किन्तु तत्र स्थूलरीत्या उक्तवन्तः इति चिन्तयतु इदानीं तत्र तस्यैव तत्र सूक्ष्मरीत्या अपि वक्तुम् इच्छामः तत्र अवच्छेद्य अवच्छेदकभावः इति अपि तत्र स्थापयित्वा तर्हि तत्र अवच्छेदकः अवच्छेदः भावः तत्र महोदय तत्र घटः अस्ति चेत् घटः भूतले अस्ति घटः भूतले अस्ति इति चिन्तयामः तत्र घटे तत्र आधेयता अस्ति खलु अथवा तत्र पटः एतत् चिन्तयामः तत्र पटः क्षम्यतां तत्र पटः अस्ति भूतले तत्र अत्र अत्र अधिकरणता अस्ति अत्र आधेयता अस्ति तत्र अवच्छेदतः धर्मः कः पटः इति पदार्थस्य
भूतले भूतलत्वम् अस्ति
भूतले भूतलत्वं समीचीनं पटे
पटे पटत्वम् अस्ति
पटे पटत्वम् इति एव अवच्छेदकधर्मः नाम यत्र तत्र नाम तत्र अधिकरणता अथवा आधेयता यदस्ति पटे आधेयता अस्ति आधेयता केवलं पटे भवति अतः तत्र पटत्वम् आधेयतायाः तत्र अवच्छेदकः यद् नाम तत्र सीमा रचयति खलु तत्र अवच्छेदकः नाम तत्र कुत्र कुत्र आधेयता अस्ति इति वदति लोके आधेयता तत्र यः या आधेयता पटे अस्ति सा आधेयता सर्वत्र नास्ति सीमिता अस्ति सा आधेयता अतः अवच्छिन्ना इति वदामः अतः तत्र अत्र अवच्छेदकः अस्ति पटत्वं तथैव
अवच्छेदकः खलु महोदय
सत्यं तत्र अधिकरणतायाः तत्र अवच्छेदकः भवति अस्तु तत्र केवलं तत्र नाम धर्मः यः धर्मः तस्मिन् वर्तते सः एव धर्मः तत्र अवच्छेदकरूपेण स्वीकर्तुं शक्नुमः इति एव वक्तुम् इष्टवान् तावदेव महोदय नाम तत्र भूतलत्वम् अस्ति अत्र पटत्वम् अस्ति तेन धर्मेण तत्र वयं तत्र सीमां रचयितुं शक्नुमः अतः एव तत्र अत्र प्रथमवाक्यं पठतु महोदय तर्हि
प्रकारत्वविशेष्यत्वस्थले अपि सर्वत्र अवच्छेद्य अवच्छेदकभावः ज्ञातव्यः इति वाक्यं पूर्वं प्रकारता आधेयता निरूपिता इति वक्तव्यम् इदानीम् तस्मिन् अवच्छेद्य अवच्छेदकभाव प्रति विवरणं दत्तम्
नाम तत्र यथा वयं दृष्टवन्तः तत्र भूतले घटः नास्ति चेत् तत्र अभावस्य विषये अपि तत्र वयं तत्र प्रतियोगिता कीदृशी इति तत्र अभावस्य प्रतियोगिता कीदृशी इत्युक्ते तत्र घटत्वावच्छिन्ना प्रतियोगिता इति उक्तवन्तः खलु तत्र नाम घटत्वम् अवच्छेदकधर्मः आसीत् खलु तस्मिन् समये
महोदय
तथैव अत्रापि तत्र अत्रापि तत्र प्रकारत्वम् अपि विशेष्यत्वं तत्र कीदृशः तत्र विशेष्यता कीदृशी इति प्रश्नः भवति तर्हि विशेष्यता तत्र विशेषतायाः अवच्छेदकः कः तर्हि
घटे निष्ठ घटत्वं विशेषतायाः अवच्छेदकः
इति भवति समीचीनं महोदय तथैव अस्ति तर्हि घटे घटत्वम् अस्ति तर्हि एतद् घटत्वमेव तत्र विशेष्यतायाः तत्र अवच्छेदकधर्मः भवति, नाम तत्र घटत्वावच्छिन्न विशेष्यता इति लघुवाक्यम् अस्माकं व्यवहारः भवति खलु, घटत्वावच्छिन्न विशेष्यता इति वयं पूर्वमपि एतादृशप्रयोगं कृतवन्तः खलु महोदय.
आं महोदय,
घटत्वावच्छिन्न विशेष्यता इति समीचीनं. हा इदानीं तत्
अतीतत्वनिष्ठ अतीतत्वत्व अवच्छिन्न प्रकारता
हा इति भवति. समीचीनं महोदय, तत् अतः एव तत्र अत्र द्विवारं त्वत्व इति आगतम्, यतोहि तत्र अतीतत्वे प्रकारता, अतीतत्वस्य धर्मः अतीतत्वत्वम् इति भवति, अतः तत्र अतीतत्वत्वं भवति तत्र तस्य अवच्छेदकः धर्मः. समीचीनं. हा अतः अग्रे
प्रकारता विशेषता तादृश प्रकारता विशेषतयोः निरूपकं ज्ञानमेव.
हा सत्यं, समीचीनं समीचीनं महोदय. हा समीचीनं. हा अतः इदानीं तत्र कीदृशज्ञानम् इति वयं कथं वदामः तत्र, अथवा कीदृशी प्रकारता इति वदामश्चेत् तत्र, अथवा कीदृशी विशेषता इति वदामश्चेत् तत् कथं कुर्मः, घटनिष्ठविशेष्यता अपि एषा विशेषता घटत्वावच्छिन्ना विशेषता अस्ति खलु.
आं महोदय.
हा अतः तत्र घटत्वावच्छिन्न घटनिष्ठविशेष्यता इति भवति, अपि तत्र प्रकारता कीदृशी
अतीतत्वत्व अवच्छिन्न
हा इति भवति. समीचीनं महोदय. हा अस्तु अग्रे.
अग्रे
घटे
तद् उक्तं खलु महोदय, घटे विशेष्यता अस्ति.
विशेष्यतावच्छेदकं घटत्वं. समीचीनं. हा अस्तु अग्रे.
विशेष्यतयोः निरूपकं ज्ञानम् अतीतः घटः इति ज्ञानमस्ति. कीदृशज्ञानं निरूपकः अस्ति, तादृशप्रकारता याः निरूपकं तादृशविशेषतायाः अपि निरूपकम्.
समीचीनम्. इदानीं तर्हि तत्र वाक्यं तर्हि वदतु महोदय आहत्य. तत्र पूर्वं वयम् एतावदेव उक्तवन्तः तत्र घटनिष्ठविशेषता निरूपकं ज्ञानम्, अतीतत्वनिष्ठप्रकारता निरूपकं ज्ञानम् इति उक्तवन्तः, किन्तु इदानीं तत्र अवच्छेदकमपि तत्र स्थापयित्वा वदतु तर्हि इदानीं वाक्यं किं भवति तर्हि.
घटत्व अवच्छिन्न विशेष्यता निरूपक अतीतत्व अवच्छिन्न प्रकारता निरूपक ज्ञानम्
इति भवति. समीचीनं महोदय. हा इति भवति. समीचीनं. हा इद् समीचीनं महोदय. हा उत्तमम् अस्ति. इदानीम् अग्रे अन्य कोऽपि कुर्यात् तर्हि. धन्यवादः महोदय. अस्तु अग्रे तत्र उषा भगिनी अग्रे पठति वा तर्हि, तत्र अग्रे किमस्ति इति.
कश्चित् ज़ूम् कर्तुं शक्नोति वा, फ़ाण्ट् लघु
लघु अस्ति वा महोदय. अस्तु अस्तु अस्तु, एकनिमिषं महोदय, एकनिमिषं महोदय. हा 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 अस्तु, क्षम्यताम्. एतत्
शक्नोति वा महोदय, त्वमेव कर्तुं शक्नोति.
हा किन्तु तत्र पुस्तके एव अस्ति महोदय, एतत् पुस्तकात् एव स्वीकृतम्, अतः तत्र इदानीं सम्यक् अस्ति. अस्तु महोदय, इदानीं हा अस्तु समीचीनं. हा अस्तु तर्हि एतावत् तत्र अतीतः घटः इति
वाक्ये तादृशज्ञानजनकः यदि शब्दप्रयोगः तर्हि ज्ञानं जन्यं, जन्यता ज्ञाने जन्यता अवच्छेदकं ज्ञानत्वं
इति तावत् तावत् वदतु तर्हि तत्र जन्यता नाम
जन्यता मम मनसि ज्ञानं जनयति घटः अतीतः इति श्रुत्वा
अतः
अतः ज्ञानं जन्यज्ञानं
अतः तत्र तत्र किम् अस्ति जन्यता नाम किम् अस्ति कार्यता खलु
जन्यता नाम आं महोदय कार्यता
जन्यता इत्युक्ते कार्यता जनकता नाम
जनकता नाम शब्दप्रयोग
हा किन्तु तत्र कारणता
कारणता
जनकः जनकः साक्षात् शब्दप्रयोगः शब्दप्रयोगे जनकता
शब्दप्रयोगे
ज्ञानं कार्यमस्ति ज्ञानं
ज्ञानं
ज्ञाने जन्यता अथवा कार्यता तत्र शब्दप्रयोगः कारणमस्ति तस्मिन् जनकता अथवा कारणता नाम तत्र अत्र विवरणे जन्यता इति उक्तं किन्तु चित्रे कारणता कार्यता इति दत्तमस्ति खलु अतः तत्र तत्र अन्वयः भवेत् मनसि अस्तु तर्हि पुनः तर्हि
जन्यता तादृशज्ञानजनकः यदि शब्दप्रयोगः तर्हि ज्ञानं जन्यं जन्यता ज्ञाने जन्यता अवच्छेदकं ज्ञानत्वं सो अत्र जन्यता अवच्छेदकं ज्ञानत्वं तादृशज्ञानत्व अवच्छिन्न जनयता निरूपितजनकता शब्दप्रयोगे तादृशज्ञानत्व अवच्छिन्न जन्यता ज्ञानत्व अवच्छिन्न जन्यता
नाम तत्र इदानीं तत्र चित्रं पश्यामः भगिनि तर्हि तत्र शब्दप्रयोगे कारणता अस्ति कीदृशी कारणता इत्युक्ते वयम् अस्माकं विवरणं कथं भवति ज्ञाननिष्ठ
ज्ञाननिष्ठकार्यता निरूपितकारणता
अथवा ज्ञाननिष्ठकार्यता निरूपितशब्दप्रयोगनिष्ठकारणता इति किन्तु इदानीं कार्यता अपि वयं केवलं कार्यता इति न वक्तुम् इच्छामः तत्रापि तत्र अवच्छेदकः धर्मः कः इति वक्तुम् इच्छामः तर्हि तत्र अवच्छेदकधर्मः कार्यतायाः किमस्ति
अवच्छेदकधर्मः कार्यतायाः
नाम जनकतायाः
जन्यतायाः अवच्छेदकं ज्ञानत्वं
ज्ञानत्वं खलु
आं महोदय
नाम यतोहि ज्ञाने अस्ति एषा कार्यता अतः तत्र ज्ञानत्वम् इति ज्ञानत्वं ज्ञानत्वम् इति अवच्छेदकः भवति कार्यता प्रति नाम ज्ञानत्वावच्छिन्न
ज्ञानत्व अवच्छिन्न कार्यता
अतः तत्र एषा कारणता कीदृशी इत्युक्ते ज्ञाननिष्ठकार्यता अथवा ज्ञानत्वावच्छिन्न कार्यता निरूपित कारणता
एवमेव
ज्ञानत्वावच्छिन्न कार्यता निरूपित कारणता इति ज्ञानत्वावच्छिन्न कार्यता निरूपित ज्ञानत्वावच्छिन्न जन्यता निरूपित
जनकता
समीचीनम् इदानीं तत्र तथैव तत्र कारणतायाः अवच्छेदकः धर्मः कः
कारणतायाः अवच्छेदकधर्मः शब्दप्रयोगे टुवर्ड्स् द शब्दप्रयोग
न कारणता शब्दप्रयोगे अस्ति तर्हि तत्र कार्यतायाः अवच्छेदकः धर्मः अस्ति ज्ञानत्वं ज्ञाने कः धर्मः वर्तते ज्ञानत्वम् इति धर्मः वर्तते
आं महोदय
शब्दप्रयोगे कः धर्मः वर्तते
शब्दप्रयोगकत्वं
प्रयोगत्वं सः सः धर्मः एव अवच्छेदकः धर्मः तर्हि कारणता केन तत्र अवच्छिन्ना भवति अवच्छेदकः धर्मः तत्र किमस्ति
शब्दप्रयोगत्वं
शब्दप्रयोगत्वम् इति भवति समीचीनं हा तर्हि शब्दप्रयोगत्व अवच्छिन्न कारणतजनकता अस्ति कार्यता कीदृशी इत्युक्ते कारणता शब्दप्रयोगनिष्ठकारणता निरूपितकार्यता इति वदामः अथवा शब्दप्रयोग अवच्छिन्न अवच्छेदकधर्मः वक्तुमिच्छामश्चेत् तत्र किं भवति
शब्दप्रयोगत्व अवच्छिन्न जनकता निरूपित
कार्यता
ज्ञानत्व अवच्छिन्न जन्यता
हा समीचीनं भगिनि हा इति भवति समीचीनं हा इति अस्तु समीचीनं हा अस्तु तर्हि अग्रे तादृश
तादृशज्ञानत्व अवच्छिन्न जन्यतानिरूपितजनकता शब्दप्रयोगे
अस्ति खलु तर्हि
आम् आं महोदय
नाम जन्यता तत्र तादृशज्ञानत्वावच्छिन्न जन्यता निरूपित तया निरूपित शब्दप्रयोगे अस्ति अस्ति खलु
आं महोदय शब्दप्रयोग जनकता अवच्छेदकं शब्दप्रयोगत्वं
समीचीनं खलु तत्र जनकता अवच्छेदकं
शब्दप्रयोगत्वं
यतोहि जनकता कुत्र अस्ति जनकता शब्दप्रयोगे अस्ति खलु
आं महोदय तदेव कारणं
अतः एव शब्दप्रयोगत्वम् अवच्छेदकं भवति समीचीनं खलु
आं महोदय
इदानीं हा अस्तु अग्रे समीचीनम् अस्तु अग्रे तत्र हा तत्र मृणालिनी भगिनी वक्तुम् इच्छति वा
धन्यवादः
धन्यवादः भगिनी
आं महोदय
हा नमस्कारः भगिनी अस्तु तर्हि तत्र अग्रे करोतु तर्हि एतावत् तत्र शब्दप्रयोगत्वम् इति जनकतायाः अवच्छेदकं धर्मः आसीत् शब्दप्रयोगत्वं हा इदानीम् अग्रे
तदवच्छिन्न तदवच्छिन्न जनकताश्रयः यः शब्दप्रयोगः सः कालं विना न सम्भवति इति कालः तस्य जनकः
इति तावत्पर्यन्तं किञ्चित् वदतु तर्हि तत्र तद् अवच्छिन्ना जनकता आश्रयः नाम तद् इत्युक्ते किम्
तदवच्छिन्ना जनकता आश्रयः तदित्युक्ते शब्दप्रयोगत्वं
हा समीचीनं शब्दप्रयोगत्वावच्छिन्न जनकता जनकता शब्दप्रयोगत्वेन अवच्छिन्ना अस्ति तद् अवच्छिन्न जनकता तस्य कुत्र अस्ति जनकता कुत्र अस्ति शब्दप्रयोगे अस्ति हा तादृशशब्दप्रयोगः अतः तत्र तस्य आशयः शब्दप्रयोगः सः शब्दप्रयोगः किं भवति
यः शब्दप्रयोगः सः कालं विना न सम्भवति इति कालः तस्य जनकः
नाम तत्र यदि कालः नासीत् एतादृशशब्दप्रयोगः एव न भवेत् खलु घटः अतीतः इति शब्दप्रयोगः न कोऽपि करोति अतः कालः अपि तादृशशब्दप्रयोगं प्रति कारणम् अस्ति अतः काल अपि तस्य जनकः अस्ति इदानीम् अग्रे
तन्निरूपितजन्यता अपि शब्दप्रयोगे
हा तन्निरूपितजन्यता अपि नाम तन्निरूपित इत्युक्ते
तन्निरूपितजन्यता
हा तत्र जन्यता केन निरूप निरूपिता भवति तत्र तयोः मध्ये तत्र निरूप्य निरूपकः भवति
शब्दप्रयोग तथा कालः
हा किन्तु तत्र जन्यता अस्ति चेत् यदि कोऽपि वदति जन्यता तदा भवत्याः प्रश्नः किं भवति तत्र कोऽपि वदति अत्र जन्यता अस्ति अस्मिन् जन्यता अस्ति इति कोऽपि वदति चेत् भवती किं पृच्छति
कः जनकः इति
हा खलु अतः तत्र जनकता अपि भवेत् खलु तर्हि तत्र जन्यता जनकता तयोः मध्ये निरूप्य निरूपकः भावः अस्ति खलु अतः तत्र कालः तस्य जनकः तन्निरूपितजन्यता नाम जनकतया निरूपितजन्यता
तर्हि कालः जनकः शब्दप्रयोगं प्रति
समीचीनं तथैव अस्ति समीचीनं भगिनि अतः तत्र काले जनकता अस्ति तया जनकतया यः जन्यता शब्दप्रयोगे अस्ति सा निरूपिता भवति अतः तन्निरूपितजन्यता अपि शब्दप्रयोगे भवति अतः तत्र शब्दप्रयोगे यथा पूर्वम् उक्तं नाम आरम्भे उक्तं शब्दप्रयोगे जन्यता अपि अस्ति जनकता अपि अस्ति खलु जन्यता अतः तत्र जन्यता अपि अस्ति जनकता अपि अस्ति इत्युक्ते तत्र तयोः मध्ये निरूप्य निरूपकभावः अस्ति वा यः शब्द तत्र चित्रं पश्यामि दर्शयामि तत्र अत्र कारणता अस्ति कार्यता अस्ति तयोः मध्ये निरूप्य निरूपकभावः अस्ति वा द्वयोः अपि शब्दप्रयोगे एव स्तः
न
खलु कारणता तत्र सम्बन्धः अत्र कार्यतायाः खलु अपि तत्र एषा कार्यता एतया कारणतया निरूपिता अस्ति अत्र अतः निरूप्य निरूपकभावः अत्र अस्ति किन्तु तयोः मध्ये नास्ति खलु अतः तत्र एतद् वक्तुम् इच्छामः अतः एव तत्र यः तत्र तन्निरूपितजन्यता अपि शब्दप्रयोगे इति हा इदानीम् अग्रे भगिनि इति एकत्रैव
इति एकत्रैव शब्दप्रयोगे ज्ञाननिष्ठकार्यता निरूपितकारणता वर्तते
अपि एवं च एवं
एवं कालनिष्ठकारणतानिरूपितकार्यता अपि वर्तते
हा इति तावत्पर्यन्तं वदतु भगिनि तर्हि शब्दप्रयोगे कीदृश तत्र शब्दप्रयोगे कारणता अपि वर्तते कार्यता अपि वर्तते खलु एषा कारणता केन अवच्छिन्ना अस्ति अथवा कया अवच्छिन्ना अस्ति
कारणता ज्ञाननिष्ठा कार्यता निरूपिता कारणता
हा इति अस्ति अपि सा कार्यता ज्ञानत्वावच्छिन्न
ज्ञानत्वावच्छिन्न कार्यता
अस्ति अतः तत्र अत्र किं वदामः निरूपिता इति अतः तत्र ज्ञानत्वावच्छिन्न इति आरभ्य ज्ञानत्वावच्छिन्न कार्यता निरूपि
ज्ञानत्वावच्छिन्न कार्यता निरूपित कारणता
कारणता अपि तथैव अत्र तत्र कारणता अत्र अस्ति तस्य अवच्छेदकधर्मः किमस्ति काले अस्ति कालत्वं समीचीनम् अतः एषा कारणता कालत्वावच्छिन्ना अस्ति तर्हि कार्यतायाः विवरणं वक्तुमिच्छामश्चेत् किं कुर्मः
कालत्वावच्छिन्न कालत्वावच्छिन्नकारणता निरूपितकार्यता
कार्यता इति अस्ति खलु तर्हि यत् वाक्यद्वयं भवती उक्तवती तदेव अस्ति खलु ज्ञाननिष्ठ कार्यतानिरूपितकारणता वर्तते एवं कालनिष्ठकारणतानिरूपितकार्यता अपि वर्तते अपि सा कार्यता
सा कार्यता अपि शब्दप्रयोग गत्वावच्छिन्ना सा कार्यतापि आमां शब्दप्रयोगत्वावच्छिन्ना तादृशकार्यतानिरूपितकारणताश्रयः कालः
नाम तत्र सर्वत्र वयं तत्र अवच्छेदकः भावः नाम कार्यता सर्वत्र नास्ति ज्ञाने एव अस्ति कारणता सर्वत्र नास्ति केवलं शब्दप्रयोगे एव अस्ति एषा कारणता अस्ति एषा कार्यता अपि अस्ति किन्तु तयोः मध्ये निरूप्य निरूपकभावः नास्ति एषा कारणता तयान् एतया निरूपिता एषा कार्यता एतया निरूपिता इति मनसि सम्यक् भवेत् इति कृत्वा एतत् सर्वं वदामः. अतः तत्र एषा कारणता काले यः या कार्यता कारणता वर्तते सा कारणता शब्दप्रयोगत्वावचिन्नकार्यता निरूपितकारणता भवति खलु. शब्दप्रयोगत्वावचिन्नकार्यता निरूपितकारणता तस्याः आश्रयः कालः इति. अतः तत्र वयं तत्र सोपानेन तत्र अत्र अवच्छेदकः अवच्छेद्यभावः पुनः अवच्छेदकः अवच्छेद्यभावः पुनः अवच्छेद्य अवच्छेदकभावः इति सर्वं स्वीकृत्य एतावत् आगतवन्तः. अतः अन्तिमभागः भगिनि तर्हि कारणता आश्रयत्वम्
पुनः कुत्र
अन्तिमवाक्यं कारणता आश्रयत्वम्
कारणता आश्रयत्वं कालस्य लक्षणं
हा इति भवति. इदानीं तत्र वाक्यस्य तत्र खण्डशः कृतवन्तः किन्तु इदानीम् आहत्य किं भवति इति पश्यामः तर्हि. अस्तु अग्रे तत्र धन्यवादः भगिनी समीचीनमस्ति. अस्तु हा अस्तु अग्रे तर्हि तत्र जयलक्ष्मी भगिनी अग्रे पठति वा तर्हि.
आं महोदय.
हा इदानीं तत्र एकनिमिषं भगिनि तत्र सर्वेषां पुरतः तत्र पुस्तकम् अस्ति वा यतोहि तत्र यदि चित्रं दर्शितुम् अथवा तत्र चित्रं पुनः अत्रैव स्थापयामि नो चेत् तत्र प्रायशः तत्र क्लेशः भवेत्. एकनिमिषः तत्र नास्ति एकनिमिषः तत्र एकनिमिषं भगिनि हा यतोहि तत्र हा अस्तु तत्र चित्रं भवेत् नो चेत् तत्र मनसि क्लेशः भवति. अस्तु तर्हि तत्र पठतु भगिनि तर्हि
तथा च आहत्य अतीतत्व अवच्छिन्नप्रकारतानिरूपितघटत्व अवच्छिन्न विशेष्यतानिरूपक ज्ञाननिष्ठज्ञानत्व अवच्छिन्न कार्यतानिरूपित शब्दप्रयोगत्व अवच्छिन्न कारणताश्रय शब्दप्रयोगनिष्ठ शब्दप्रयोगत्व अवच्छिन्न कार्यतानिरूपित कारणताश्रयत्वं कालस्य लक्षणमिति वाच्यम्.
इदानीं तत्र दीर्घवाक्यम् अस्ति किन्तु तत्र सर्वं स्पष्टं भवेत् खलु.
किञ्चित्
चित्रं दृष्ट्वा तत्र हा आहत्य तत्र किम् अस्ति
आहत्य अतीतत्वत्वम् अवच्छिन्न प्रकरता अतीतत्वमिति
प्रकरता केन अवच्छिन्न
अतीतत्वात् अवच्छिन्न अस्ति
न
अतीतत्वम् अवच्छेदकः
न तत्र पुनः एकवारं पठतु भगिनि तत्र त्व
अतीतत्वत्वं
हा खलु
हा
हा नाम तत्र अतीतत्वे प्रकारता अस्ति तर्हि अवच्छेदकः धर्मः अस्ति तत्र अतीतत्वत्वं अतः तत्र अवच्छिन्न प्रकारता
निरूपित पुनः तथा एव घटत्वावच्छिन्न विशेष्यता घटे विशेष्यता अस्ति तेन घटत्वावच्छिन्न विशेष्यता तेन निरूपकः ज्ञानं पुनः ज्ञाननिष्ठज्ञानत्वं ज्ञाने ज्ञानत्वमस्ति ज्ञानत्वावच्छिन्न कार्यता निरूपित ज्ञाने ज्ञानत्वमस्ति ज्ञानत्व अवच्छिन्न कार्यता तेन निरूपितं पुनः शब्दप्रयोगत्व अवच्छिन्न शब्दप्रयोगः शब्दप्रयोगे शब्दप्रयोगत्वम् अस्ति अतः शब्दप्रयोगत्व अवच्छिन्न कारणता
कारणता नाम या कारणता ज्ञानं प्रति शब्दप्रयोगः कारणं शब्दप्रयोगे कारणता अस्ति एषा कारणता शब्दप्रयोगत्वावच्छिन्ना अस्ति अतः
शब्दप्रयोगत्वावच्छिन्न कारणता कारणताश्रयः
आश्रयः
पुनः शब्दप्रयोगनिष्ठ शब्दप्रयोगत्व अवच्छिन्न कार्यता पुनः तदेव शब्दप्रयोगे कार्यता अपि अस्ति शब्दप्रयोगत्व अवच्छिन्न कार्यता तया निरूपित कारणताश्रयत्वम् अस्ति कालः
कालः इति कारण आश्रयः कालः अस्ति तादृश आश्रयत्वं नाम कालः आश्रयः अस्ति कस्य आश्रयः अस्ति कारणतायाः आश्रयः अस्ति किन्तु कारणता साधारणकारणता नास्ति विशिष्टा कारणता अस्ति केन अथवा कया विशिष्टा इत्युक्ते एतद् दीर्घविशेषणं भवति खलु विशेषणम् इति चिन्तयामः तत्र तादृशम् अस्ति नाम विवरणं तस्य विवरणं कीदृशी कारणता इत्युक्ते एतद् विवरणं भवति यत् यस्मिन् तत्र सर्वं स्पष्टरीत्या उक्तमस्ति अपि तत्र अत्र कार्यता कारणता तयोः मध्ये कार्यतातः कारणता प्रति गन्तुम् इच्छामश्चेत् निरूपित अथवा निरूपक इति वदामः किन्तु अत्र तादृशं न कर्तुं शक्नुमः खलु कारणता अपि कार्यता यः तत्र शब्दप्रयोगे ये स्तः तयोः मध्ये तत्र न गन्तुं शक्नुमः अतः एव तत्र शब्दप्रयोगत्वावच्छिन्नकारणता निष्ठ शब्द अथवा कारणतायाः आश्रयः शब्दप्रयोगः तादृशशब्दप्रयोगे निष्ठ पुनः शब्दप्रयोगत्वावच्छिन्नकार्यता इति पुनः तादृशं वयम् उक्तवन्तः तर्हि तत्र कोऽपि प्रश्नः वा एतावत् अस्तु तत्र प्रश्नः नास्ति चेत् अग्रे गन्तुं शक्नुमः नाम तत्र चित्रं यदा वयं निरूपयामः तत्र किमपि न भवेत् वदतु महोदय अशोक महोदय
एतद् लक्षणवाक्ये घट घटत्व इति शब्दस्य विहाय यदि लक्षणं वदामः तर्हि जनरल् अस्ति
सत्यं महोदय सत्यं नाम सत्यं महोदय सत्यं 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 महोदय
अतीतत्व आश्रय निष्ठविशेष्यता इति रीपेस् कर्तुं शक्नुमः
सत्यं महोदय अतः तत्र एतादृश लक्षणम् इति कालस्य लक्षणं नाम तत्र अत्र किं स्वीकृतं यदा भवान् उक्तवान् आरम्भे तत्र अतीतादिव्यवहार हेतुः कालः तत्र आदि इति आसीत् खलु
आं महोदय
हा भवान् यद् वदति समीचीनमेव नाम तत्र अत्र घटः अपि तत्र न भवेत् अन्यत् किमपि भवितुम् अर्हति अतीतत्वस्थले अपि अन्यत् किमपि भवितुम् अर्हति नाम घटः वर्तते इति अपि तत्र तादृशशब्दप्रयोगः अपि तं प्रति अपि कालः कारणमस्ति खलु
आं महोदय
हा पटः वर्तते तर्हि तत्र पटः वर्तमानः अस्ति नाम यथा वयं घटः अतीतः इति वदामः तथैव तत्र घटः वर्तमानः अस्ति अथवा पटः वर्तमानः अस्ति अतः समीचीनं महोदय नाम तत्र घटः स्थाने पटः इति भवितुम् अर्हति अपि अतीतत्वम् इति स्थाने तत्र वर्तमानत्वम् इति भवितुम् अर्हति अतः तत्र अत्र किं चिन्तनीयम् आदि इति अस्ति इति कृत्वा अंशद्वयं घटः अपि अतीतत्वम् उदाहरणत्वेन स्वीकृतं किन्तु साक्षात् तदेव भवेत् इति नास्ति
यथा भवान् उक्तवान् नाम तत्र रीप्लेस् कर्तुं शक्नुमः नाम अत्र किमपि विकल्पः नास्ति विकल्पः नास्ति विकल्पः नास्ति अत्र उदाहरणं स्वीकृतम् अस्ति लक्षणवाक्ये
कथं सामान्यलक्षणं जनरलैस्
अत एव महोदय तत्र यदा तत्र यत् साक्षात् वयम् उक्तवन्तः नाम तत्र अतीतादिव्यवहारहेतुः कालः इति तावदेव नाम तत्र अतीतत्वं तत्र यादृशवाक्यं भवति इति न जानीमः खलु महोदय वाक्यं किं किं वाक्यं भवति इति यदि न जानीमः तर्हि तत्र अत्र किं किं भवेत् इति न जानीमः अतः तत्र केवलम् उदाहरणत्वेन एषः भागः स्वीकृतः इति खलु
आं महोदय
अतः तत्र आदि इति स्थापनेन तत्र जनरलैज्ड् भवति महोदय नाम तत्र यावत् तत्र निरूपकं ज्ञानमिति अस्ति खलु तत्र निरूपितं ज्ञानमिति विशेषता निरूपकं ज्ञाननिष्ठ इति तावत्पर्यन्तं तत्र आदि निरूपकं ज्ञानम् अथवा एतादृश हा इति तत्र मध्ये तत्र आदि इति इत्यादि इति स्थापितुं शक्नुमः महोदय समीचीनं वा
आं महोदय परम् अहं चिन्तयामि चिन्तयित्वा
अस्तु 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 महोदय नाम तत्र आदि इति अस्ति इति कृत्वा लक्षणवाक्ये घटे अतीतत्वादिव्यवहारहेतुः अतः तत्र अत्रापि तत्र आदि इति स्थापयितुं शक्नुमः इति चिन्तनम् अस्तु तर्हि अग्रे धन्यवादः महोदय अस्तु अग्रे तत्र प्रेमलता भगिनी अग्रे पठति वा
आम् महोदय विषयः अस्ति सूक्ति ललर्तिका इति
न एकः न एवं घटो वर्तमानः
क्षम्यतां महोदय एवं घटो वर्तमानः घटो भविष्यति इति शब्दप्रयोगौ आदाय ताभ्यां जायमानौ बोधौ तत्र प्रकारौ वर्तमानत्व भविष्यत्वे प्रकारतावच्छेदके वर्तमानत्वत्व भविष्यत्तत्वत्वे ज्ञात्वा अभ्यसनीयः एतद् पूर्वम् उक्तं यद् अतितत्वादिविषये उक्तम् एवं च कालसूचक शब्दः वर्तमानः भविष्यति इति तस्मिन्नपि प्रयोगं कृत्वा एतद् उपरि वाक्यं विशिष्टसूक्ष्मवाक्यं यद् उक्तवन्तः एतद् कृते एतत् चित्रं दृष्ट्वा ज्ञानं शब्दप्रयोगः इति स्वीकृत्य काले वर्तमानकारणता इति एतद् कारणत्वम् इति उक्तं कारणताश्रयत्वं कालस्य लक्षणम् इति एतद् उक्तं तदेव अर्थ वर्तमानघटो वर्तमान इति नीत्वा घटो भविष्यति इति नीत्वा अपि एतद् वाक्यस्य रचना कर्तुं शक्यते इति
समीचीनं हा समीचीनं भगिनि हा इदानीं तत्र भागं दृष्ट्वा किञ्चित् वदामः तर्हि अतः घटो वर्तमानः तत्र सः अपि शब्दप्रयोगः खलु घटः वर्तमानः तत्र व्यवहारः अस्ति वा घटः वर्तमानः इति शब्दप्रयोगेन सः केवलं शब्दप्रयोगः वा अथवा व्यवहारः भवति वा
व्यवहारः भवति
ज्ञानजनकमस्ति समीचीनं तथैव तत्र घटो भविष्यति अपि व्यवहारः खलु हा तन्नाम ताभ्यां जायमानौ बोधौ स्तः खलु शब्दप्रयोगौ आदाय नाम स्वीकृत्य
अवस्थाभ्यां जायमानौ बोधौ स्तः अतः तत्र प्रकारौ घटो वर्तमानः इति ज्ञाने प्रकारः कः तर्हि
वर्तमानत्वम् इति
वर्तमानत्वं केवलं वर्तमानत्वम्
इति प्रकारः
प्रकारः भवति
भवति
यथा तत्र अतीतः इति अतीतत्वं
भविष्यत्वे इति भवति
हा भविष्यत्वम् इति भविष्यत्वं भविष्यति इति तत्र भविष्यत्वं भवति अतः वर्तमानत्वभविष्यत्वे इति तत्र केवलं तत्र नपुंसकलिङ्गपदस्य द्विवचनरूपं खलु वर्तमानत्वभविष्यत्वे नाम तत्र द्वन्द्वसमासः द्विवचने वर्तमानत्वभविष्यत्वे नपुंसकलिङ्गपदं वर्तमानत्वम् इति अस्ति खलु तर्हि हा अतः तत्र नपुंसकलिङ्गम् अग्रे अपि प्रकारतायाः अवच्छेदके पुनः तत्र अवच्छेदकम् अवच्छेदके द्विवचनं खलु अवच्छेदके के सन्ति के स्तः वर्तमानत्वस्य अवच्छेदकधर्मः
भविष्यत्व इति उक्तमस्ति पूर्वं ते
नाम तत्र प्रकारः अस्ति प्रकारः अस्ति वर्तमानत्वम् इति चिन्तयामः
वर्तमानत्वप्रकारता भविष्यत्वप्रकारता
इति अस्ति वर्तमानत्वम् इति प्रकारः अस्ति चेत् प्रकारतायाः अवच्छेदकः धर्मः कः अस्ति
वर्तमानत्वं
हा इति एव अतः तत्र वर्तमानत्वत्वम् अपि तथैव भविष्यत्वे
भविष्यत्वम्
हा इति पुनः द्विवचने उक्तं ज्ञात्वा ज्ञात्वा अभ्यसनीयं नाम अभ्यासं करणीयम् अस्माभिः नाम तत्र अतीतत्वावच्छिन्न इति अतीतत्वावच्छिन्न इति स्थाने वर्तमानत्वावच्छिन्न इति वक्तव्यम् अथवा भविष्यत्वावच्छिन्न प्रकारता निरूपित इति यथा भवती उक्तवती तथैव अस्ति हा अस्तु समीचीनम् अतः तत्र एतादृश प्रयोगं तत्र केवलं तत्र वाक्यरूपे दत्तमस्ति किन्तु चित्ररूपेण तत्र सम्यक् रीत्या वयम् अवगन्तुं शक्नुमः अस्तु समीचीनं भगिनि धन्यवादः अस्तु अग्रे तत्र धन्यवादः भगिनि अग्रे तत्र चन्द्रमती भगिनी पठितुम् इच्छति वा अग्रे
नमस्ते
नमस्ते भगिनि
सूक्तिललन्तिका कालविशेषाधिकनिरूपणं कालविशेषाधिनिरूपणं कालोपाधिनिरूपणम्
कालः उपाधिः निरूपणम्
कालोपाधिनिरूपणम् कालनिरूपणप्रसङ्गात् तस्य सर्वधारत्वं कालप्रसङ्गे कालसङ्गोचरूपे रूपोपाधयः कालिक सम्बन्धश्च निरूप्यन्ते अनादिः अनन्तः खलु कालः तस्य तदावस्थितस्य न व्यवहारयोग्यता अस्ति
तावत्पर्यन्तं किञ्चित् वदतु भगिनि तर्हि
कालनिरूपणप्रसङ्गात् तस्य सर्वाधारत्वं सर्वाधारत्वं काल सङ्कोचरूप कालसङ्कोचरूपोपाधयः कालसङ्गोचकरूपोपादेयः
प्रथमतया तत्र क्रियापदं वदतु, तत्र क्रियापदं किम् अस्ति अस्मिन् वाक्ये? क्रियापदमस्ति
निरूप्यन्ते,
नाम निरूप्यन्ते कर्मणि प्रयोगः निरूप्यन्ते अस्माभिः निरूप्यन्ते नाम निरूपणं भवति,
निरूपणं भवति,
निरूपणं भवति कस्य निरूपणं भवति?
कालस्य,
कालस्य इदानीं तत्र कालनिरूपणं, कालस्य एव निरूपणम् इदानीं कुर्वन्तः स्मः, अतः अस्मिन् प्रसङ्गे सर्व आधारत्वं नाम सर्वाणां सर्वेषां पदार्थानां
कालस्य आधारेण एव सर्वं भविष्यति,
तत्र सर्वमूर्तद्रव्यस्य आधारः तत्र कालः भवति, अतः सर्वाधारत्वम् इति तस्य निरूपणं कुर्मः, अपि अग्रे सङ्कोचक नाम किम् इति अग्रे उच्यते, अपि रूप
उपादेयः
तत्र एताः उपादयः किं कुर्वन्ति? कालस्य सङ्कोचनं कुर्वन्ति नाम कालस्य न्यूनरूपम् एकं भागं निर्दिशन्ति, अतः सङ्कोचं सङ्कोचकं सन्ति रूपं सन्ति अपि
कालिकसम्बन्धम् अपि निरूपयति,
कालिकसम्बन्धं सम्बन्धः कः इति अपि अग्रे
निरूपयति,
किं कुर्मः इति उक्तमस्ति तावदेव,
सूचना
कालस्य कालस्य लक्षणं किम् इति दृष्टवन्तः, अग्रे कालस्य विवरणं निरूपणं कुर्मः तर्हि तस्मिन् प्रसङ्गे किं किं कुर्मः तर्हि तत्र सर्वाधारत्वं कालस्य अस्ति, तस्य नाम कालस्य
कालस्य सङ्कुचितत्वं
सङ्कोचकरूप उपादयः, कालस्य सङ्कोचकः नाम कालस्य सङ्कोच सङ्कुचितरूपं कथं भवति उपादयः ताभिः भवति इति तत्र
निरूपयः
उपादयः काः इति वक्ष्यामः, अपि कालिकसम्बन्धः कः इति अपि अग्रे पश्यामः, तस्य अपि निरूपणं भवति। हा अग्रे
अनादिः अनन्तः खलु कालः, कालस्य आदि नास्ति अन्तमपि नास्ति, कालम् अनादि अस्ति तस्य यदावस्थितस्य न व्यवहारयोग्यता अस्ति,
यदि तत्र इदानीं लौकिकार्थे अस्ति व्यवहारः इति, इदानीं तत्र शब्दजनक तत्र ज्ञानजनकशब्दप्रयोगः इति नास्ति, केवलं लौकिकरूपेण व्यवहारः नाम कालः अनादि अस्ति अनन्तः अस्ति तादृश तस्य नाम कालस्य यथा कालः अस्ति तथैव अस्ति चेत्
तादृशम् अवस्थितस्य व्यवहारः व्यवहारयोग्यः अस्ति,
योग्यः नास्ति खलु,
योग्यः योग्यता
नास्ति न व्यवहारयोग्य
व्यवहारयोग्यता अस्ति, अस्तु अस्तु व्यवहारयोग्यता नास्ति
नाम कदा व्यवहारयोग्यः भवति नाम यदि तत्र वयं वदामः तत्र अद्य श्वः अद्य वयं किमपि कुर्मः, किन्तु यदि भवति काले किमपि कुर्मः इति भवति चेत् तत्र कस्मिन् काले करोति भोः इति प्रश्नः भवति खलु, किन्तु करोमि
अथवा कालस्य सङ्कुचितम् आगच्छति वा,
अपेक्षितम् अथवा यथा अस्ति तथा भवति चेत् तत्र प्रयोगः व्यवहारः न कर्तुं शक्नुमः अतः व्यवहारयोग्यता कालस्य यथा अस्ति तथैव तस्य व्यवहारयोग्यता नास्ति इति अस्ति समीचीनं भगिनि धन्यवादः अस्तु अग्रे अन्य कोऽपि पठे तर्हि तत्र राजीवभगिनी अग्रे पठितुम् इच्छति वा
अत्र सूक्तिललान्तिक इति किमर्थम् उक्तम्
तत्र अग्रे वदामि भगिनि सूक्तिललान्तिक नाम ललन्तिका इति जानाति खलु तर्हि
इत्युक्ते माला इति भवति वा
तत्र लता इव इति एव चिन्तयामि खलु ललन्तिका सूक्तेः
किमर्थम् अत्र
तत्र मध्ये मध्ये तादृशं तत्र केवलं शैली इति चिन्तयामि भगिनि तावदेव नाम तत्र यत्र साक्षात् तत्र किमपि उपशीर्षिकम् अस्ति तत्र वदति केषुचित् स्थलेषु तत्र सूक्तै ललन्तिका इति वदति तावदेव तत्र साक्षात् महत्त्वं तत्र कुत्र स्थापनीयं कुत्र न स्थापनीयम् इति मया न अवगतम् एतावत् केवलं तत्र मध्ये मध्ये स्थापितवान् किन्तु किमर्थमिति न जानामि भगिनि तर्हि तत्र राजी भगिनी अग्रे
आचार्य उपाधयः उपाधि इत्युक्ते तस्य अत्र किमर्थः
इति अर्थः अग्रे अग्रे उच्यते भगिनि उपाधिः नाम किम् इति अग्रे उच्यते नाम तत्र उपाधिः इति यथा तत्र येन वयं भागं कुर्मः एतत् पूर्वं वयं दृष्टवन्तः खलु तत्र आकाशस्य भागः साक्षात् भागः नास्ति खलु आकाशः नाम स्पेस् खलु तत्र नाम यत् यत् सर्वत्र वर्तते किन्तु यदा तत्र श्रोत्रेन्द्रियं नाम यदि वयं प्रकोष्ठः इति वदामः तत्र तत्र वयं तत्र एकं भागं स्वीकृतवन्तः खलु तत्र सीमां वयमेव रचितवन्तः किन्तु आकाशस्य सः साक्षात् भागः नास्ति खलु आकाशः एकः एव नाम तस्य भागः नास्ति अवयवाः न सन्ति आकाशस्य खलु अतः तत्र भागाः केवलं कल्पिताः तथैव तत्र नाम भारतदेशे आकाशः वर्तते अत्र अन्यस्मिन् देशे आकाशः वर्तते इति एतत् सर्वं केवलं कल्पितं यथा तत्र देशस्य अपि अहं तत्र पूर्वमपि उक्तवान् तत्र उदाहरणार्थं तत्र भारतदेशस्य प्रदेशरूपेण तत्र भागं कृतं खलु नाम कर्णाटकप्रदेशः अथवा महाराष्ट्रप्रदेशः इति भागाः सन्ति किन्तु या रेखा वयं निर्मयामः तत्र चित्रे स्थापयामः रेखां सा रेखा तु तत्र भूतले नास्ति खलु सा रेखा केवलम् अस्माकं व्यवहारार्थं कल्पयामः खलु तथैव अत्र उपाधिः नाम कालस्य भागाः इति भवति नाम कालस्य भागः भागं भागं कृत्वा भागस्य उपयोगेन वयं व्यवहारं कुर्मः भागस्य नाम तत्र अस्ति उपाधिः
आचार्य उपाधि नामकरणम् इति भासते खलु संज्ञा नामकरणं
सत्यं सत्यम् अग्रे 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 उच्यते किन्तु केवलं किञ्चित् वक्तुम् इष्टवान् तावदेव सत्यं भगिनि तथैव अस्ति उपाधिः इति का इति अग्रे उच्यते भगिनि
अवगतं धन्यवादः
अस्तु समीचीनम् अस्तु धन्यवादः अस्तु अग्रे राजे भगिनि
तत्र पूर्ववाक्यमस्ति किल तस्य यथा अवस्थितस्य न व्यवहारयोग्यता अस्ति इति
व्यवहार नाम अत्र व्यवहार इति लौकिक अर्थः न तु नैयायिकपारिभाषिक अर्थः नाम केवलं तत्र कालः एव अस्ति किन्तु कालस्य भागः नास्ति चेत् तस्य उपयोगमेव वयं न कर्तुं शक्नुमः. नाम श्वः अत्र गतवान्, श्वः घटः आसीत् इति तत्र वयं न वाक्यं वक्तुं शक्नुमः खलु. अतः तत्र श्वः, ह्यः, अद्य, एकमासपर्यन्तम् इति, अतः तत्र सर्वेषु व्यवहारेषु कालस्य पूर्णं कालं स्वीकृत्य व्यवहारः न भवति, किन्तु कालस्य भागम् एव स्वीकृत्य व्यवहारः कर्तुं शक्नुमः खलु. अतः नाम कालः तस्य यथा अवस्थितस्य कालस्य न व्यवहारयोग्यता अस्ति. नाम कालस्य सम्पूर्णरूपेण कालः अस्ति इति यदि स्वीकुर्मः तेन न कोऽपि व्यवहारः भवति.
प्रत्येकवाक्ये वयम् अद्य वा श्वः वा वयं न प्रयोगं कुर्मः, परन्तु गच्छामि चेत् तत्र कालः अपि
सूक्ष्मरीत्या कालः अस्ति. गच्छामि इति वदामः किन्तु केवलं तत्र गच्छामि अस्ति चेत् प्रश्नः भवति खलु कदा
इति.
हा, यद्यपि तत्र अद्य वा इदानीं वा सायङ्काले वा इति पुनः प्रश्नः भवति खलु. तर्हि हा, अतः तत्र केवलं तत्र व्यवहाराः तत्र लौकिकव्यवहारेषु कालस्य भागः भागं स्वीकृत्य, खण्डं स्वीकृत्य एव व्यवहारः भवति. अतः सम्पूर्णकालस्य अखण्डकालस्य व्यवहारयोग्यता नास्ति.
न हि वयं कुतश्चित् प्रवृत्ति आरब्धां शकादि गणनाम् आधुनिकीं वा कृताब्दगणनां विहाय अयं पूर्वम् आसीत्, अयं तदा आसीत् इति व्यवहरामः. उन्मत्तस्य वा तथा भाषणेन किञ्चित् अवगच्छामः. अतः परिच्छिन्नः केनचित् पदार्थेन पृथक् कृतः कालः अस्माकं व्यवहारयोग्यः भवति. निदर्शनाय स्वातन्त्र्य उत्तरकालः इति व्यवहारमादाय चिन्तयामः. अनेन परमव्यापकस्यापि कालस्य 1947 प्रभृति एकादशाधिकद्विसहस्रपर्यन्तं किञ्चित् शकलं वृद्धौ आरोहति. विषयम् एनं सुविशदं निरूपयामः.
इति समीचीनं भगिनि, तावत्पर्यन्तं.
नहि वयं कुतश्चित् प्रकृति आरब्धं वयं किञ्चित् कालस्य विषये चिन्तयामः चेत् तत्र शकादिगणनामिति तस्य अर्थं
नाम तत्र शकादिगणनं भागः तत्र वर्षः इति अथवा कालस्य भागस्य गणनं कुर्मः खलु तत्र. कुतश्चित् प्रभृति नाम अस्मिन् क्षणात् कालस्य गणनं कृत्वा, अस्तु इदानीम् एकः वर्षः अतीतः, इदानीम् अन्यः वर्षः अतीतः, अथवा एकः संवत्सरः अतीतः, इदानीम् अन्यः संवत्सरः अतीतः इति शकादिगणनां. शकादि नाम तत्र केवलं तत्र टैम् यूनिट् इति एव अस्ति भगिनि, तावदेव.
समयं स्वीकृत्य एतद् आरभ्य इति वयं वदामः, अथवा एतद् पूर्वं
तत्र यस् तत्र गणनं नाम तत्र कालस्य गणनं तत्र कुर्मः,
गणनं कुर्मः आधुनिकीं वा क्रिस्ताब्दगणनां विहाय अयं पूर्वम् आसीत्, अयं तदा आसीत् इति व्यवहरामः. वयं एतादृशं पूर्वम् आसीत् इति वयं प्रयोगं वयं व्यवहारे वयं सर्वदा कुर्मः. आधुनिकी वर्षस्य विषयः वा अथवा पूर्वम् आसीत् इति एकं गणनां वयं कुर्मः
इदानीं भगिनि तत्र तत्र प्रायश किञ्चित् क्लेशः अस्मिन् वाक्ये वर्तते इति किञ्चित् सोपानेन गच्छामः तर्हि तत्र अयं पूर्वम् आसीत् अयं तदा आसीत् इति केवलं यदि वदामः तत्र किं भविष्यति नाम तत्र यदि चिन्तयामः तत्र एषः आचार्यः पूर्वम् आसीत् नाम तत्र प्रसिद्धः आचार्यः अभिनवगुप्तः प्रसिद्धः आचार्यः सः पूर्वम् आसीत् इति यदि कोऽपि वदति अथवा अयं तदा यदा तत्र अभिनवगुप्त आचार्यः आसीत् तस्मिन् समये एव तत्र अथवा तस्मात् पूर्वं तत्र उत्पलदेव इति आचार्यः आसीत् इति तादृशव्यवहारः भवेत् किन्तु अयं तदा आसीत् इति यदि व्यवहरामः तेन वयं किम् अवगच्छामः यदि अहं केवलं वदामि तत्र एषः पूर्वम् आसीत् इति तत्र अस्तु कोऽपि पूर्वम् आसीत् अतः तत्र किञ्चित् अवगच्छामः यदि अहं वदामि तत्र अभिनवगुप्ताचार्यः तत्र अस्मिन् वर्षात् आरभ्य एतावत्पर्यन्तम् आसीत् इति यदि अहं वदामि तदा भवत्याः मनस् आत्मनि तत्र अन्यविधज्ञानम् उत्पद्यते खलु
इतोपि किञ्चित्
स्पष्टता भवति हा किन्तु केवलं तत्र अभिनवगुप्ता इति आचार्यः पूर्वम् आसीत् इति वदामि अस्तु कोऽपि आसीत् इति एव भवति अतः तत्र कीदृशज्ञानं भवति उन्मत्तस्य वा तथा भाषणेन किञ्चित् अवगच्छामः यः कोऽपि उन्मत्तः अस्ति सः उन्मत्तः नाम
मनसि स्पष्टता नास्ति इति
सः किमपि वदति चेत् अस्तु सः किमपि उक्तवान् वयं किञ्चित् अवगच्छामः किन्तु किञ्चिदपि न अवगच्छामः खलु
सत्यं
हा तथैव भवति यदि अयं पूर्वम् आसीत् अयं तदा आसीत् एतादृशं सर्वं तादृशम् उन्मत्तस्य वाक्य इव भवति यदि एतादृश गणनाम् अथवा गणनां विहाय एतद् नासीत् चेत् खलु नाम तत्र अवगतं खलु भगिनि न हि वयं कुतश्चित् प्रभृति आरब्धां शकादिगणनाम् आधुनिकीं वा क्रिस्ताब्दगणनां विहाय यदि अयं पूर्वमासीत् अयं तदा आसीत् इति व्यवहरामः तथा किं भवति उन्मत्तस्य वा तथा भाषणेन किञ्चित् अवगच्छामः
अस्तु वयं स्थूलरूपमेव अवगच्छामः
समीचीनम् अग्रे
द्विवारं दत्तमस्ति जि अयं पूर्वम् आसीत् इति अवगच्छामः अयं तदा आसीत् इति किमर्थं तस्य भिन्न
नाम तत्र अग्रे तस्य उदाहरणं दास्यति नाम यदा एकः आसीत् तस्मिन्नेव समये अन्यः अपि आसीत् इति
परिच्छिन्नः केनचित् पदार्थेन पृथक्कृतः कालः अस्माकं व्यवहारयोग्यः भवति वयं कदा व्यवहार योग्यः भवति इति वक्तुं शक्नुमः चेत् तस्य कालस्य परिच्छिन्नः तः आरभ्य एतत् पर्यन्तम् इति वयं पृथक् कृत्वा वदामः चेत् कालस्य एक अवच्छिन्नरूपेण वयम् अवगन्तुं शक्नुमः
हा नाम कालस्य भागः तत्र पदार्थेन पृथक् कृतः तत्र केनचित् पदार्थेन पृथक् कृतः अग्रे तत्र उदाहरणानि भवन्ति किन्तु किमपि पदार्थं स्वीकृत्य कालस्य भागं यदि कुर्मः तदा एव तत्र कालस्य तत्र व्यवहारयोग्यः कालः भवति नाम तदा एव तत्र व्यवहारं कर्तुं शक्नुमः अग्रे निदर्शनाय
स्वातन्त्र्य उत्तरकालः इति व्यवहारम् आदाय चिन्तयामः टेक्निकल् टर्म् वा महोदय?
स्वातन्त्र्य उत्तरकालः नाम तत्र इण्डिपेण्डेन्स् डे इति तदा आरभ्य यः कालः स्वातन्त्र्य उत्तरकालः
अनेन परं व्यापकस्यापि कालस्य एतद् 1947 प्रभृति एतद् 2011 पर्यन्तं किञ्चित् शकलं बुद्धौ आरोहति
नाम तत्र यत् अनन्तम् अस्ति अस्माकं तत्र एतदेव अस्ति खलु भगिनि नाम तत्र सर्वस्य या शक्तिः वर्तते अस्माकम् आत्मनि वा मनसि वा किमपि सा शक्तिः सीमिता अस्ति खलु नाम तत्र वयम् अनन्तः अनादि इति तस्य अवगमनं तत्र न भवति तस्य अवगमनं खलु
सत्यं
हा नाम यत् यत् सीमिता अस्ति तत्र अतः तत्र यस् अस्तु 1947 प्रभृति 2011 पर्यन्तम् इति कालस्य भागः इति तस्मिन् समये किमपि अभवत् इति भवति चेत् अस्तु अस्तु अहम् इदानीम् अवगच्छामि इति भवति खलु अतः बुद्धौ तदा एव तादृशशकलं शकलं नाम भागः कालस्य भागः बुद्धौ आरोहति
अस्तु सो स्वातन्त्र्य उत्तरकालः इति वयं यदा शृणुमः तत्समये अस्माकं मनसि झटिति 1947 आरभ्य अस्माकं 2023 चेत् तावत्पर्यन्तं मनसि चिन्तनम् आगच्छति
नाम अहं चिन्तयामि तत्र यदा तत्र देवदत्तपाटीलमहोदय तत्र पुस्तकस्य लेखनं कुर्वन् आसीत् तस्मिन् समये 2011 आसीत् इति मन्ये खलु अतः सः तादृशम् उक्तवान् अतः
विषयम् एनं सुविशदं निरूपयामः
नाम इदानीं तत्र उदाहरणं दत्तवन्तः कालस्य भागं स्वीकृत्य एव वयं व्यवहारं कर्तुं शक्नुमः कालस्य भागः केन केन कैः कैः भवति इति अग्रे निरूपयामः नाम उपाधिः इति स्वीकृत्य उपाधिः का किम् इति उक्त्वा तत्र किं कथं कथं भवति इति अग्रे वदामः समीचीनं भगिनि हा धन्यवादः कोऽपि प्रश्नः वदतु भगिनि
उपाधिः इति एतावत्पर्यन्तं वयं
न दत्तं न दत्तम् अग्रे भवति भगिनि हा अग्रे भवति
धन्यवादः
समीचीनं अग्रे तत्र शोभा भगिनी अग्रे पठति वा तर्हि
आं महोदय कालस्य गणनायै अनेके उपायाः अस्मद् पूर्वजैः आदृताः पृथिवीं परितः सूर्यस्य भ्रमणं प्रकल्प्य तत्र अंशानां षष्ट्यधिकानि त्रीणि शतानि आदाय एकैक अंशतुल्यपरिधिभागं क्रमितुं यः कालः तत् कालमानं भवेत् इति विचारः प्रक्रान्तः तत्र कालस्य गणनायै अनेके उपायाः अस्मद् पूर्वजैः आदृताः यथा कालः इति यथा परिच्छिन्नः भवति इति इदानीं पर्यन्तं दृष्टवन्तः पठितवन्तः अस्मत् पूर्वजैः उपायाः कृतानि
इत्युक्ते गणनाय नाम तत्र कालस्य मापनं खलु
कालस्य मापनं कालस्य
मापनं गणना अथवा मापनं तत्र यावत् पर्यन्तम् इति कालस्य गणना अथवा मापनं कियत् कालः
इति इतः तत्र ततः यावत्पर्यन्तम्
इति तस्य नाम तस्य परिमाणं खलु तस्य परिमाणं कालस्य परिमाणं तत्र एतस्य भागस्य परिमाणं मापनम् अथवा इति तत्र गणना
अग्रे पृथ्वीं
अतः तत्र पृथिवीं परितः सूर्यस्य भ्रमणं प्रकल्प्य प्रकल्प्य अस्ति इति उक्तं तत्र यतोहि सूर्यः पृथिव्याः भ्रमणं न करोति किन्तु तत् प्रकल्प्य तत्र अंशानां षष्ट्याधिकानि त्रीणि शतानि इति इत्युक्ते तत्र 365
डेस् आदाय
क्षमतां 360 षष्ट्यधिकानि त्रीणि शतानि 360 आदाय एकैक अंशतुल्यपरिधिभागं क्रमितुं यः कालः तत् कालमानं भवेत् इति विचारः प्रक्रान्तः तत्र एकैक अंशतुल्यपरिधिभागं क्रमितुं यः कालः इत्युक्ते तत्र एकैकदिने तत्र किं परिधि महोदय परिधिभागं
क्रमितुं परिधिभागं नाम तत्र परिधिः यत्र तत्र सूर्यस्य मार्गः इति चिन्तयतु तत्र सूर्यः पृथ्वीं परितः भ्रमणं करोति खलु हा तर्हि भ्रमणस्य मार्गः नाम सन्स्पात् इति चिन्तयतु तस्य तत्र भागः तत्र एकैक अंशतुल्यपरिधिभागं क्रमितुम्
इति 360 डिग्रीस् वदामः खलु वन् कम्प्लीट् सर्कल् तर्हि भूम्यां स्थित्वा यदि वयं कालगणनं चिन्तयामः तर्हि सूर्यस्य भ्रमणं अस्माकं परिधिः भवति परितः एकम् यदि क्रमणं करोति सूर्यः तस्य कियत् कालः भवेत् इति चिन्तनम्
इति चिन्तनं समीचीनं भगिनि तथैव अस्ति
अंश 50 डिग्रीस् तुल्यपरिधिभागं
समीचीनं भगिनि तथैव अस्ति धन्यवादः
इदम् अंश
समीचीनं भगिनि समीचीनम् अतः तत्र
तत् कालमानं भवेत् इति विचारः प्रक्रान्तः
नाम तत्र एकं दिनम् इति स्वीकृतं खलु तर्हि तत्र
सत्यं इति कल्प्य मापनम् इति भवति तत्र
सत्यम्
अस्य अर्थः तत्र कल्पितकाल इति
नाम तत्र सर्वं तत्र कालस्य भागः नास्ति किन्तु कालस्य भागं कल्पयामः वयं समीचीनम् इति अस्ति समीचीनम् अस्तु अग्रे सुधा भगिनी अग्रे
आं महोदय ततः सूर्यादिने अपेक्ष्येन कालज्ञानाय घटिकायन्त्रं कलम्बकं घटिकायन्त्रं च विष्कृतम् परन्तु सर्वत्र जलसिकतादिसाधनानां न्यूनाधिकभावे मानं स्थिरं न भवति लम्बके अपि घर्मकाले वेगन्यूनतया शीतकाले वेगाधिक्याच्च तावद् अंशानां प्रक्रमाय कदाचित् अधिककालः कदाचित् न्यूनकालः इति वैषम्यम् अतः आधुनिकैः क्वार्ट्स् रीतिः आविष्कृता तत्र क्रियाणां सन्ततौ सूक्ष्मोऽपि न्यूनाधिकभावः न भवति
नाम तत्र पूर्वम्
अत्र
ततः तत्र इदानीं तत्र कालस्य भागः कृतः इदानीं ततः सूर्यदिन
अपेक्ष्येण कालस्य ज्ञानाय घटिकायन्त्रं कटिकायन्त्रस्य आवश्यकम् अस्ति
हा नाम तत्र ते तादृशं सर्वम् आगतमस्ति नाम वाच् वित् पेण्ड्युलम् इति तत्सर्वम् आगतमस्ति यथा तत्र घटिकायन्त्रं नाम वाच् वित् पेण्ड्युलम् इति उक्तमस्ति केवलं तत्र अत्र केन केन तत्र कालस्य भागः कुर्मः इति उक्तं तावदेव हा परन्तु तत्र यदि पूर्वकाल तत्र घटिकायन्त्रं यदस्ति तत्र का समस्या भवति तत्र जलसिकतादि
साधनानां न्यूनाधिकभावे न्यू कदाचित् न्यूनं भवति कदाचित् अधिकं
भवति नाम तत्र कालस्य मापनं नाम मेजर्मेण्ट् तत्र कदाचित् न्यूना भवति कदाचित् अधिका भवति तत्र यदि कालस्य मापनं कुर्मः तत्र जलं स्वीकृत्य यावत् काल तत्र जलम् उपरि अस्ति जलम् अधो गच्छति चेत् एकनिमेषः अभवत् इति टैमर् एतावत् पूर्वम् आसीत् खलु हा यदि तादृशम् अथवा सिकतां तत्र साण्ड् अथवा साल्ट् इति उपयुज्य टैमर् भवेत् खलु पूर्वं हा तादृशं स्वीकुर्मश्चेत् तत्र सर्वदा तत्र सम्यक् रूपेण मापनं करोति इति न कदा न्यूना भवति कदा अधिकः भवति अतः मानं स्थिरं न भवति हा लम्बके अपि घर्मकाले
वेगन्यूनतया शीतकाले वेग अधिकतया च भवति
तावदंशानां प्रक्रमाय
कदाचित् अधिककालः कदाचित् न्यूनकालः इति वैषम्यम् अत्र तुल्यतमः नास्ति कदाचित् अधिकः भवति कदाचित् न्यूनः भवति इति
नाम तत्र अतः पदार्थानां कारणेन तत्र मापनं सर्वदा सम्यक् न भवति अथवा तत्र ऋतुः तत्र शीतकालः अस्ति अथवा घर्मकालः अस्ति तदा तत्र तादृशसमये अपि तत्र यन्त्रस्य एकविधा कार्यं भवति कार्यं प्रायशः इदानीम् अद्य सम्यक् कार्यं करोति किन्तु शीतकाले सम्यक् कार्यं न कुर्यात् इति एतत् सर्वं भवति अतः आधुनिकैः
क्वार्ट्स् इति रीतिः आविष्कृता
हा नाम तत्र क्वार्ट्स् क्रिस्टल् इति उपयुज्य इदानीं तत्र घटिकायन्त्रं क्रियते
तत्र क्रियाणां सन्ततौ सूक्ष्मोऽपि न्यूनाधिकभावः न भवति
हा नाम तत्र क्वार्ट्स् क्रिस्टल् मध्ये तत्र क्रिया अस्ति किन्तु क्रिया किन्तु तत् सूक्ष्मक्रिया अस्ति खलु तत्र पेण्डुलम् इव तत्र क्रिया दृश्यमाना क्रिया नास्ति खलु हा अतः तत्र सूक्ष्मक्रिया वर्तते किन्तु तादृशघटिकायन्त्रे न्यूना अधिकभावः न भवति नाम सम्यक् रीत्या तत्र कालस्य मापनम् एकः निमेषः इत्युक्ते एकः निमेषः एव अभवत् इति वक्तुं शक्नुमः अतः तत्र सम्यक् रीत्या तत्र कालस्य मापनं भवति इति अस्ति तावदेव नाम तत्र कालस्य भागः केन केन भवति इति ता उक्तम् अस्तु तर्हि तत्र समीपे जातः नरसिंहमहोदय क्षम्यताम् अद्य भवान् न पठितवान् किन्तु अग्रिमे वर्गे भवान् निश्चयेन
पठितवान्
पुष्पा भगिनी हा क्षम्यतां भगिनी
क्षम्यताम् इच्छते महोदय I'm getting to listen to it third time, fourth time. It is good.
Astu vai, samichinam. Astu tari. Astu tari, atah tatra viramama agrime saptahe tatra atah arabhya tatra iha avalokyatam iti atah arabhya patamaha.
तर्हि
तथापि महोदय तथापि मया एतद् प्रेषितवन्तः न तद् क्वश्चन् अण्ड् आन्सर्स् तद् सम्यक् न
कृतवती
कृतवती सर्वे न कृतवती परन्तु किं किं कृतवती
अस्तु अस्तु एकनिमिषं भगिनि एकनिमिषं
धन्यवादः महोदय